इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। बिहार विधानसभायाः निर्वाचनम् अस्मिन् वर्षे द्वयोः चरणयोः क्रमशः नवम्बर मासस्य षड् दिनांके एकादश दिनांके च भविष्यति। सहैव मतगणना नवम्बर मासस्य चतुर्दश दिनांके भविष्यति। निर्वाचनायोगेन ह्यः त्रिचत्वारिंशदुत्तर द्विशतं सदस्यभूताय बिहार विधानसभा निर्वाचनाय मतदान कार्यक्रमस्य घोषणा कृतास्ति। निर्वाचन कार्यक्रमस्य घोषणया सह एव बिहारे आदर्शाचार संहिता प्रख्यापितास्ति। ह्यः नवदिल्ल्यां वार्ताहरान् सम्बोधयन् मुख्य निर्वाचनायुक्तः ज्ञानेश कुमारः अकथयत् यत् राज्ये त्रिचत्वारिंशदुत्तर सप्तकोटि संख्याकेभ्यः मतदातृभ्यः द्वादशोत्तर सप्तशताधिक नवतिसहस्र संख्याकानि मतदान केन्द्राणि निर्मितानि भविष्यन्ति।
बिहार के चुनाव दो फेजेस में होंगे। पहले फेज के डेट गजट नोटिफिकेशन 10 तारीख को आएगा, दूसरे का 13 को। लास्ट डेट ऑफ मेकिंग नॉमिनेशंस पहले फेज की 17 को होगी, दूसरे की 20 को। स्क्रूटनी 18 और 21, विड्रॉल की आखिरी तारीख 20 अक्टूबर और 23 अक्टूबर, और डेट ऑफ पोल 6 नवम्बर थर्सडे और दूसरा 11 नवम्बर ट्यूजडे। काउंटिंग 14 नवम्बर को होगी और पूरी चुनावी प्रक्रिया 16 नवम्बर तक समाप्त कर ली जाएगी।
सः प्रोक्तवान् यत् प्रथमचरणस्य मतदानाय अधिसूचना अस्य मासस्य दश दिनांके प्रकाशिता भविष्यति। सहैव प्रत्याशिनः सप्तदश दिनांकं यावत् नामांकनं कर्तुं शक्ष्यन्ति। द्वितीयचरणस्य निर्वाचनाय अधिसूचना अस्य मासस्य त्रयोदश दिनांके प्रकाशिता भविष्यति। विंशति दिनांकं यावच्च प्रत्याशिनः नामांकनं विधातुं शक्नुवन्ति। मुख्य निर्वाचनायुक्तः अकथयत् यत् प्रथमवारं प्रत्येकस्मिन् निर्वाचनक्षेत्रे एकः सामान्य पर्यवेक्षकः प्रायोजयिष्यते। सः आयोगस्य संजयो भूत्वा कार्यं करिष्यति। श्रीकुमारः अकथयत् यत् निर्वाचनप्रक्रियायाः गहननिरीक्षणाय सर्वेषु मतदानकेन्द्रेषु वेबकास्टिंग इति एतत् आयोजयिष्यते। सः प्रोक्तवान् यत् जनपदाधिकारिणः आरक्षाधिकारिणः च कीदृश्यः अपि हिंसाघटनाः न सोढुं निर्दिष्टाः सन्ति। सः इदमपि अकथयत् यत् आयोगः राज्ये पर्याप्तकेन्द्रीय सशस्त्र आरक्षिबलानां सन्धानं करिष्यति, सहैव मादकपदार्थानाम् अनैतिकधनस्य च व्रजनाव्रजनं प्रति निरीक्षणं करिष्यति। प्रधानमन्त्री नरेन्द्रमोदी श्वः राष्ट्रियराजधान्याम् एशिया प्रीमियर टेलीकॉम एंड टेक इति कार्यक्रमस्य 25,000 इंडिया मोबाइल कांग्रेस आईएमसी इत्यस्य उद्घाटनं करिष्यति। नवदिल्ल्याः यशो भूमि सम्मेलन केन्द्रे अक्टूबर मासस्य 8 11 दिनांक पर्यन्तं चतुर्दिवसीयः महाकार्यक्रमः भविष्यति। कार्यक्रमस्य विषयः परिवर्तनाय नवाचारः इति अस्ति, तथा च 25,000 आईएमसी इत्यस्य उद्देश्यं दूरसञ्चारस्य तथा डिजिटल तन्त्रज्ञानस्य क्षेत्रेषु आत्मनिर्भरतायाः आत्मनिर्भरभारतस्य च प्रोत्साहनम् अस्ति। अस्मिन् सम्मेलने 6G इकोसिस्टम, साइबर सुरक्षा, उपग्रह सम्प्रेषणम्, कृत्रिम बुद्धिमत्ता, इंटरनेट ऑफ थिंग्स, दूरसञ्चार विनिर्माण इत्यादीनि प्रमुखानि क्षेत्राणि केन्द्रिताः भविष्यन्ति। आगामि 25,000 इंडिया मोबाइल कांग्रेस कार्यक्रमात् पूर्वं केन्द्रीय संचार मंत्री ज्योतिरादित्य एम सिंधिया वर्यः ह्यः अंतिम सज्जतायाः समीक्षायै द्वारकास्थितस्य यशोभूम्यां सम्प्राप्तवान्। संचार मंत्रालयस्य अनुसारं अस्मिन् कार्यक्रमे सार्धैकलक्षतोप्यधिकाः आगन्तुकाः, 7,000 अधिकाः वैश्विक प्रतिनिधयः, 400 प्रदर्शकाः च सम्मिलिताः भविष्यन्ति। उपराष्ट्रपतिः तथा राज्यसभायाः सभापतिः सीपी राधाकृष्णनवर्यः अद्य विपक्षदलैः सह विभिन्नानां दलानां सदननेतृभिः सह मेलनं करिष्यति। निर्वाचितप्रतिनिधिभिः सह उच्चसदनस्य अध्यक्षत्वेन तस्य प्रथमः औपचारिकः संवादः भविष्यति। इति वार्ताः।